एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। नवनिर्वाचित राष्ट्रपतिः रामचन्द्र पौडेलः कथयति, जनतायाम् आशाम् उत्साहम् च सञ्चार्य राष्ट्रे नवीना जागृतिः आनेतव्या। काष्ठमण्डपस्थिते बीपी संग्रहालये ह्यो बीपी कोइराला प्रवृत्ति नेत्रीणाम् प्रतिमासु माल्यार्पणानन्तरम् आयोजिते कार्यक्रमे नवनिर्वाचितः राष्ट्रपतिः पौडेलः अवोचत्, राजनीतिक स्थायित्वाय राष्ट्रे सुशासनाय च सर्वेषाम् ध्यानाकर्षणम् आवश्यकम् वर्तते। असौ जनतायाम् उद्भूतम् नैराश्यम् आशायाम् परिणेतुम् प्रतिबद्धताम् व्यक्तवान्। नवनिर्वाचितः राष्ट्रपतिः पौडेलः ह्य एव पशुपतिनाथ मन्दिरे दर्शन पूजार्चनाः विधाय प्रसादम् अगृह्णात्। तत्पूर्वम् नवनिर्वाचितः राष्ट्रपतिः पौडेलः गुह्येश्वरी मन्दिरे पूजाम् व्यददात्। नवनिर्वाचितेन राष्ट्रपतिना रामचन्द्र पौडेलेन सह सभामुखा देवराज घिमिरे ह्य अमिलत्। राष्ट्रपतेः बोराटारस्थे नैज निवासे सम्पन्ने तस्मिन् मेलने सभामुखा घिमिरे नवनिर्वाचित राष्ट्रपतिम् पौडेलम् वर्धापनम् विज्ञाप्य सफल कार्यकालाय शुभकामनाम् अभिव्यनक। सभामुखेन घिमिरे विधेन अन्तरव्यवस्थापिका संघस्य सम्मेलनस्य कारणेन आत्मनः फाल्गुनस्य 29 दिवसे आयोक्ष्यमाणे राष्ट्रपतेः शपथग्रहण समारोहे उपस्थितेः असामर्थ्यमपि राष्ट्रपतये ज्ञापितम् आसीत्। अष्टदलीय राष्ट्रपति निर्वाचनाभियान परिचालन संयोजन संयन्त्रस्य उपवेशेन राष्ट्रपतेः निर्वाचने सहयोगम् कुर्वतः सर्वान् प्रति धन्यवादः ज्ञापितो वर्तते। सिंहप्रसादवर्तिनी नेपाली कांग्रेस संसदीय दलस्य कार्यालय ह्य उपविष्टेन अन्तिमोपवेशेन राष्ट्रपतिम् रामचन्द्र पौडेलम् निर्वाचितम् विधातुम् सहयोगम् विदधानानि राजनीतिक दलानि प्रतिनिधिसभायाः राष्ट्रियसभायाः प्रदेशसभानाम् च सांसदान् निर्वाचनायोगम् सुरक्षा निकायान् कर्मचारिणः संचारकर्मिणश्च प्रति धन्यवादः ज्ञापितोऽस्ति। उपवेशस्य पश्चात् नेपाली कांग्रेस दलस्य सभापतिः अष्टदलीय राष्ट्रपति निर्वाचनाभियान परिचालन संयन्त्रस्य संयोजकश्च पूर्णबहादुर खड्का अद्य सम्पद्यमानात् उपराष्ट्रपतेः मनोनयनस्य पञ्जीकरणात् प्राक प्रत्याशिनो विषये सहमतिः अवाप्यते इत्यभासत। कांग्रेस दलस्य उपसभापति खड्का उपराष्ट्रपतेः प्रत्याशिनो विषये अष्टानां दलानां मध्ये किमपि विमृष्टं नास्ति इति भासमाणः राष्ट्रपतेर्निर्वाचने सम्पृक्तानां दलानां शीर्षनेतृणाम् उपवेशेन प्रत्याशी निर्णीयते इति अज्ञापयत्। उपराष्ट्रपतिः खड्का संचारकर्मभिः अवदत् उपराष्ट्रपतेः प्रत्याशिनो विषये निर्वाचनायोगेन संविधाने विहितायाः व्यवस्थायाः वैपरीत्येन निर्णयः विहितो वर्तते। उपराष्ट्रपतेः चयनाय अद्य मनोनयन पञ्जीकरणस्य कार्यक्रमो वर्तते। श्व रविवासरे प्रत्याशिनाम् अन्तिम नामावल्याः प्रकाशनस्य आगामिनः चैत्रमासस्य तृतीय दिवसे मतदानस्य च कार्यतालिका निर्धारिता अस्ति। चैत्रस्य तृतीय दिवसे पूर्वाह्नस्य 10 वादनात् दिवा 3 वादनम् यावद् मतदानम् विधास्यते इति निर्वाचनाधिकृतस्य कार्यालयेन ज्ञापितम् वर्तते। संविधाने उपराष्ट्रपतेः कार्यकालोऽपि राष्ट्रपतेः समानो भवतीति व्यवस्था वर्तते। राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षम् निर्वाचनायोगेन परह्यः फाल्गुनस्य 25 दिवसे सम्पन्नस्य राष्ट्रपतेः निर्वाचनस्य परिणामेन सहितम् प्रतिवेदनम् ह्य अर्पितम् वर्तते। शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते कार्यक्रमे प्रमुख निर्वाचनायुक्तः दिनेश कुमार थपलिया प्रतिवेदनमिदम् आर्पयत। तदवसरे राष्ट्रपतिः भण्डारी निर्वाचनम् स्वच्छे स्वतन्त्रे निष्पक्षे विश्वसनीये पारदर्शिनी भयमुक्ते च वातावरणे सम्पादितम् इति कृत्वा आयोगम् सम्बद्ध राजनीतिक दलानि प्रत्याशिनो निर्वाचने सहभागिनः निर्वाचकमण्डलस्य सदस्यान् निर्वाचनस्य सम्पादनाय संलग्नान् कर्मचारिणः सुरक्षाकर्मिणश्च सम्बद्धान् सर्वान् पक्षाञ्च प्रति हार्दम् धन्यवादम् अभिव्यनक। प्रमुखायुक्तः थपलिया निर्वाचनस्य व्यवस्थापनस्य प्रक्रियायाः परिणाम सर्वोच्च न्यायालयेन प्रधानमन्त्रिणः नेकपा माओवादी केन्द्रस्य अध्यक्षस्य च पुष्पकमल दाहाल प्रचण्डस्य विरूद्धे पञ्जीकारिते न्यायिक प्रकरणे अन्तरिमादेशस्य प्रदानम् अस्वीकृतम् वर्तते। न्यायाधीशस्य ईश्वर प्रसाद खतिवड़ाभिदस्य एकल न्यायपीठेन निवेदकस्य याचनायाः अनुसारेण अन्तरिमादेशस्य प्रदानम् ह्यः अस्वीकृतमस्ति। न्यायाधीशस्य खतिवड़ाभिदस्य न्यायपीठेन न्यायिक प्रकरणाय अग्राधिकारम् प्रदाय पञ्चदश दिनानाम् अभ्यन्तरे विपक्षिणे लिखितम् उत्तरम् प्रस्तोतुम् आदिष्टमिति सर्वोच्च न्यायालयस्य प्रवक्ता विमल पौडेलः अज्ञापयत। काष्ठमण्डपस्य टूडी खेलस्थाने षड्सप्तत्युत्तर द्विसहस्रतम विक्रम वर्षस्य माघमासस्य प्रथमे दिवसे आयोजिते कार्यक्रमे प्रधानमन्त्रिणा प्रचण्डेन प्रदत्ताम् अभिव्यक्तिमादाय गत मंगलवासरे सर्वोच्च न्यायालये आदेशाभियाचन निवेदनम् पञ्जीकारितम् आसीत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति प्रविधेः दुरूपयोगेन वर्धिता महिलानाम् हिंसाम् नियन्त्रयितुम् विधिगतः नीतिगतश्च सुधारः आवश्यको वर्तते। महिला सुरक्षा बल सर्जन समूहेन ह्य काष्ठमण्डपे आयोजितायाम् अन्तरक्रियायाम् मन्त्री शर्मा सूचना प्रविधिम् दुरूपयुज्य महिलासु बालिकासु च जायमानायाः हिंसायाः नियन्त्रणत्वेन वैद्युतापराध सम्बद्धा नीतिः निर्मातव्येति विचाराम् अभिव्यनक। उप प्रधानमन्त्री भौतिक पूर्वाधार यातायात मन्त्री च नारायणकाली श्रेष्ठ निगदति जनतायाः जीवनस्तरस्य उन्नयनमेव वर्तमान सर्वकारस्य प्रमुखम् उद्देश्यम् वर्तते। ह्य पूर्वभागस्थ नवलपरासी जनपदे आयोजिते कार्यक्रमे उप प्रधानमन्त्री श्रेष्ठ देशे विपुल राजनीतिक परिवर्तनस्य पश्चात् निर्मितम् संविधानम् क्रियान्वयनस्य क्रमे अग्रे वर्धितम् अस्ति इत्यतः अतः परम् सामाजिकेन सांस्कृतिकेन च रूपान्तरणेन सह जनतायाः जीवनस्तरस्य उन्नयनस्य प्रमुखोद्देश्येन सर्वकारः अग्रे वर्धितोऽस्तीति उदैरयत्। नेकपा एमाले दलेन सचिवालय उपवेशः आकारितो वर्तते। अद्य पूर्वाह्नस्य सार्ध नववादने ललितपुरस्य च्यासलवर्तिनी दलस्य मुख्यालये उपवेशोऽसौ आकारितोऽस्तीति एमाले दलस्य केन्द्रीय कार्यालयस्य सचिव डाक्टर भीष्म अधिकारी ज्ञापयति। सचिवस्य अधिकारिण अनुसारेण उपवेशे सामयिक राजनीतेः उपराष्ट्रपते निर्वाचनस्य च विषयो विमृश्येते। गृह मन्त्रालयेन नेपाल प्रहरिण जनपद समूह पक्षे पञ्चानाम् प्रहरी नायब महानिरीक्षकाणाम् नामानि प्रहरीतिरिक्त महानिरीक्षक पदे पदोन्नत्यै परामृष्टानि सन्ति। ह्य उपविष्टेन पदोन्नति परामर्शन समितेः उपवेशेन प्रहरी नायब महानिरीक्षकाणाम् मधेस प्रदेश प्रहरी कार्यालयस्य प्रमुखस्य वसन्त बहादुर कुमारस्य लुम्बिनी प्रदेश प्रहरी कार्यालय प्रमुखस्य टेक प्रसाद राई इत्यस्य बागमती प्रदेश प्रहरी कार्यालयस्य प्रमुखस्य दीपक थापा विदस्य कोशी प्रदेश प्रहरी कार्यालयस्य प्रमुखस्य श्यामलाल गेवालिनः प्रहरी प्रधान कार्यालयस्य आर्थिक प्रशासन प्रबन्ध निर्देशनालय वर्तमानस्य किरण वज्राचार्यस्य च नामानि प्रहरी अतिरिक्त महानिरीक्षक पदे पदोन्नत्यै परामृष्टानि सन्तीति प्रहरी महानिरीक्षकस्य सचिवालयस्य प्रहरी वरिष्ठ परीक्षक दीपेन्द्र जीसी अज्ञापयत। पृथ्वी राजमार्गस्य अन्तर्गत तनहुँ जनपदस्य विमल नगराद घाँसी कुवा पार्यन्तिक पूर्वभागस्थ मार्गखण्ड पञ्चदश दिनानि प्रतिदिनं घण्टा चतुष्टयावधिम् यावत् पूर्ण रूपेण पिधाप्यते। श्व फाल्गुनस्य अष्टाविंशा दिवसात् चैत्रस्य द्वादशम् दिवसम् यावत् रात्रौ द्वादशवादनात् प्रातः चतुर्वादन पर्यन्तं प्रतिदिनं मारखण्डोऽसौ पिधाप्यमानो वर्तते। अत्यावश्यक यातायात साधनानि विहाय अन्यानि यातायात साधनानि तदवधौ सञ्चालयितुम् निषिद्धानि सन्ति इति सहायक प्रमुख जनपदाधिकारी काशीराम गैरे अज्ञापयत्। चीनदेशस्य राष्ट्रपति पदे सीपीसी नाम्नः चीनदेशीय कम्युनिष्ट दलस्य महासचिव सी चिनफिङ पुनः निर्विरोधम् निर्वाचितो वर्तते। इति समाचाराः।